ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः तत्र गतवर्गे अस्माकं प्रवर्तमानः विषयः आसीत् तत्र द्विकर्मकाः धातवः इति। तस्मिन् विषये वयं दृष्टवन्तः तत्र षोडशधातवः सन्ति। एते धातवः तत्र द्विकर्मकाः इति। तत्र कर्मपदं द्वयं भवितुम् अर्हति किन्तु केवलं तत्र षोडशधातवः इति न किन्तु तत्र समानार्थकधातवः अपि तत्र द्विकर्मकाः भवन्ति इति अपि तत्र उक्तवन्तः। अस्तु अतः तत्र यत्
महोदय समानार्थकधातवः तदर्थं किं
समानार्थकः तत्र पश्यतु भगिनि तत्र ब्रवीति इति अस्ति। ब्रवीति इति अर्थः ब्रवीति इति क्रियापदस्य अर्थः कः?
वदति।
वदति अतः तत्र वद् धातोः अपि द्विकर्मकत्वम् इति। अतः तत्र हा तावदेव तत्र समानार्थक नाम यदि तत्र तत्र वदति अपि अपि तत्र ब्रवीति अर्थ तत्र धातुद्वयमस्ति किन्तु एकमेव एकः एव अर्थः अतः तत्र वदति अपि द्विकर्मकः धातुः भवति इति। किन्तु अद्य नूतनविषयः भवति तत्र नूतनविषयः अस्ति तत्र कर्मणि प्रयोगः। तत्र कर्मणि प्रयोगः तत् यथा तत्र कर्तृप्रयोगः लट्लकारे भवति लोट्लकारे भवति लुङ्लकारः अस्ति तादृशः तत्र विविधाः रूपाः सन्ति कर्मणि प्रयोगस्य अपि। किन्तु अद्य वयं किं कुर्मः इत्युक्ते तत्र वर्तमानकाले कर्मणि प्रयोगस्य रूपं कीदृशं भवति इति पश्यामः। अस्तु तर्हि तत्र केचन नियमाः सन्ति तत्र प्रायशः सर्वे जानीयुः अतः तत्र किन्तु एकवारं पश्यामः तदनन्तरम् अग्रे कथामपि पठामः। अस्तु अतः तत्र नरेश महोदय तत्र आरम्भं करोति वा तत्र नवदश अधिकशततमे पुटे अवधेयम् इति अस्ति। रघुपतिमहोदय नमस्कारः महोदय।
नमस्ते महोदय।
नमस्कारः। चिन्ता मास्तु महोदय।
कर्तरिप्रयोगसम्बद्धवाक्यानां परिशीलनानन्तरं वयं कर्तरिप्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः।
अस्य वाक्यस्य अर्थः कः? कर्तृप्रयोगः नाम किं? यद् वयं साधारणतया कुर्मः सः एव कर्तृप्रयोगः। तत्र कर्तृप्रयोगे तत्र किं तत्र रामः वनं गच्छति रामः ग्रन्थं पठति तत्सर्वं कर्तृप्रयोगः इति वदामः। सम्बद्ध नाम तादृशप्रयोग येषु वाक्येषु अस्ति तेषु वाक्येषु के अंशाः सन्ति इति अतः तत्र तेषां वाक्यानां परिशीलनं कुर्मः। परिशीलनानन्तरं वयं तस्य प्रयोगस्य कर्तृप्रयोगस्य नियमाः तत्र के नियमाः इति नियमाः सन्ति इति ज्ञात्वा तेषां सङ्ग्रहणम् अत्र कुर्मः अतः तत्र सङ्ग्रहीतुं शक्नुमः। तत्र त्रयः नियमाः सन्ति ते के इति पठतु महोदय अग्रे।
प्रथम कर्तृप्रयोगे कर्तृपदं प्रथमाविभक्त्यनन्तं भवति।
हा प्रथमा विभक्त्यन्तं भवति
कर्तृपदं प्रथमविभक्ति अस्ति यथा
विभक्ति हा तत्र विभक्त्यन्तम् अस्ति इति
विभक्त्यन्तं यथा छात्रः श्लोकं पठति इत्यत्र छात्रः इति कर्तृपदं प्रथमाविभक्त्यन्तम् अस्ति
हा समीचीनं हा अग्रे
द्वितीय कर्तरिप्रयोगे कर्मपदं यदि भवति तर्हि द्वितीयविभक्त्यन्तं भवति
तत्र मध्ये अस्ति खलु तत्र आवरणे मध्ये अस्ति खलु यदि भवति तर्हि नाम
आवश्यकं नास्ति यदि कर्मपदं भवति
हा यदि कर्मपदं वाक्ये अस्ति चेत् हा समीचीनं हा
द्वितीयविभक्त्यन्तम् अस्ति यथा लेखकः ग्रन्थं लिखति इत्यत्र ग्रन्थम् इति द्वितीयविभक्त्यन्तम् अस्ति
हा समीचीनं महोदय हा समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनी इदानीं तृतीय अंशः यः अस्ति तम् अंशं पठतु
महोदय कर्तृप्रयोगे कर्तुः क्रिया
कर्तुः
क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति
तत्र अधोभागे तत्र अस्ति तत्र छात्रः पठति इति अस्ति खलु तत्र छात्रः पठति किमर्थं तत्र तादृशम् अस्ति किमर्थं छात्रः पठन्ति इति नास्ति
छात्रः एकवचनं पठति अपि एकवचनं क्रियापदम्
अस्तु तत्र छात्रः पठामि इति किमर्थं न वदामः
पुरुष प्रथमपुरुषः अस्ति चेत् पठति उत्तमपुरुषः अस्ति चेत् पठामि
हा अतः तत्र किं कुर्मः तत्र कर्तृप्रयोगे कर्तुः इति विभक्ति का तत्र
षष्ठी विभक्तिः
हा प्रातिपदिकं
कर्तृ
हा कर्तृ प्रथमविभक्तौ किं भवति
कर्ता
हा अतः कर्तुः यः अस्ति कर्तुः अपि क्रियापदस्य च षष्टि तत्र समूहः समूहे समानविभक्तिः भवेत् खलु कर्तुः इति षष्टि क्रियापदस्य अपि षष्टि च किमस्ति वचनसम्बन्धः अस्ति अपि कि अन्यः सम्बन्धः कः अस्ति पुरुषसम्बन्धः अपि भवति हा तत्र पुनः च इति अस्ति इदानीं द्वितीयसमूहः कः
पुरुषसम्बन्धः
किन्तु समूहः अस्ति चेत् तत्र केवलम् एकः सदस्यः न खलु द्वितीयचकारः किमर्थमस्ति
द्वितीयचकारः वचनपुरुष अपि
वचनसम्बन्धः पुरुषसम्बन्धः अतः सम्बन्धद्वयम् अस्ति अतः तत्र चकारः सम्बन्धः द्वयं नाम वचनसम्बन्धः पुरुषसम्बन्धः एतौ सदस्यौ स्तः तत्र तस्मिन् समूहे हा समीचीनम् इदानीं तत्र अवगच्छति खलु भगिनि तत्र वचनसम्बन्धः पुरुषसम्बन्धः कः इति हा समीचीनम् इदानीम् अग्रे पठतु
कर्तृपदम् एकवचनान्तं चेत् क्रियापदमपि एकवचनान्तं भवति कर्तृपदं द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं वा भवति महोदय
समीचीनं भगिनि समीचीनम् अग्रे
कर्तारम् अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति
हा तत्र कर्तारम् अनुसृत्य तत्र विभक्तिका
द्वितीय एकवचनं
हा द्वितीया कर्ता कर्तारं तत्र तम् अनुसृत्य कर्तारः यः अस्ति तम् अनुसृत्य नाम कर्तारः तत्र कर्ता प्रथमपुरुषः अस्ति चेत् तत्र क्रियापदमपि प्रथमपुरुषः कर्ता मध्यमपुरुषः अस्ति चेत् क्रियापदमपि मध्यमपुरुषः इति समीचीनं भगिनि. हा इदानीं तत्र छात्रः श्लोकः पठति तत्र किं तत्र सूचितमस्ति तत्र छात्रः पठति तत्र कः सम्बन्धः सूचितः अस्ति तत्र
वचनसम्बन्धः
वचनसम्बन्धः समीचीनम् इदानीं तत्र अहं करोमि इति तत्र अस्ति तत्र कः सम्बन्धः सूचितः
पुरुषसम्बन्धः
पुरुषसम्बन्धः समीचीनं हा अतः तत्र एते अंशाः वयं जानीमः किन्तु तत्र केवलम् एकवारं यदि स्मरामः तान् अंशान् अग्रे तत्र कर्मणि प्रयोगे रूपं कीदृशं भवति इति सुलभतया अवगन्तुं शक्नुमः तावदेव. अस्तु समीचीनं भगिनि धन्यवादः. अस्तु अग्रे रघुवीरानन्दस्वामी अग्रे भवान् पठति वा तत्र कर्मणि प्रयोगस्य नियमाः. अधो भागे एव महोदय तत्र तस्मिन्नेव पुटे
नवदश एव
नवदशादि अधिकशततमे पुटे
कर्मणि प्रयोगसम्बन्धवाक्यानि परिशील्य वयं कर्मणि प्रयोगस्य नियमान् एवं सङ्गृहीतुं शक्नुमः. कर्मणि प्रयोगे कर्तृपदं तृतीयाविभक्त्यान्तं भवति. कर्मणि प्रयोगे कर्मपदं प्रथमाविभक्त्यान्तं भवति. कर्मणि प्रयोगे कर्मणः क्रियापदस्य च वचनसम्बन्धः पुरुषसम्बन्धः च भवति.
हा इदानीं तत्र कर्तृपदं कीदृशं भवति कर्मणि प्रयोगे
कर्तृकर्मणोस्कृत्य
कर्तृपदं कर्मणि प्रयोगे
विभक्त्यन्तं भवति.
हा तृतीयविभक्त्यन्तं भवति. तत्र कर्मणि प्रयोगः अस्ति चेत् तत्र कथं ज्ञातुं शक्नुमः तत्र किं पदं कर्तृपदं तृतीयविभक्त्यन्तं पदं द्रष्टव्यमस्ति. अस्तु अपि तत्र कर्मपदं कथं जानीमः
कर्मपदं क्रिया अन्वेति
अपि तस्य विभक्ति विभक्ति का
समानविभक्तिवचनं भवति.
न न समानविभक्ति न महोदय तत्र
क्षम्यतां महोदय यत् कर्मणि प्रयोगे इत्युक्ते कर्मपदं यदस्ति तदनुसृत्य क्रियापदं भवति.
हा समीचीनं महोदय. हा तत्र वचनम् अपि पुरुषः पुरुषं तत्र यत् पुरुषं तत्र यः पुरुषः कर्मणस्य कर्मणः सः एव पुरुषः क्रियापदस्य अपि यः वचनं कर्मणः सः एव यत् वचनं कर्मणः तदेव वचनं क्रियापदस्य अपि. हा अपि कर्मपदस्य विभक्ति का कर्मणि प्रयोगे
कर्मपदस्य विभक्तिः भवति प्रथमा विभक्तिः
प्रथमाविभक्तिः. हा प्रथमाविभक्त्यन्तं भवति.
अभिहिते अनभिहिते तर्हि द्वितीया अभिहिते
नाम किं महोदय
उक्तः अस्ति चेत् तर्हि
अस्तु 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 अस्तु. हा किन्तु इदानीं कर्मणि प्रयोगः एव अतः तत्र कर्मपदं भवति इति नो चेत् तत्र भावे प्रयोगः इति. हा किन्तु तद् अग्रे आयति महोदय.
तत्र कर्मप्रयोग कर्तरि प्रयोगः अस्ति चेत् तत्र कर्ता प्राधान्यमस्ति. क्रियापदं कर्तरि
कर्तारम् अनुसरति कर्तारम् अनुसरति
कर्तारम् अनुसरति. कर्मणि प्रयोगे अस्ति चेत् कर्मप्राधान्यम् अस्ति. क्रियापदं कर्मणः अनुसृत्य भवति.
कर्मणः इति अनुसृत्य अस्ति चेत् तत्र उपपदविभक्ति द्वितीया अस्ति महोदय अतः अपि कर्म इति तु नपुंसकलिङ्गपदम् अतः तत्र कर्म अनुसृत्य एव
कर्म
अथवा कर्मपदम् अनुसृत्य
कर्मपदम् अनुसृत्य भवति. भावे प्रयोगे तु क्रियापदप्राधान्यम् अस्ति.
समीचीनं महोदय. समीचीनं. इदानीं तत्र समीचीनं महोदय. अस्तु इदानीं तत्र अधोभागे तत्र वाक्यानि सन्ति खलु तत्र एकवारं पठति वा तत्र
एकवचनान्तम् एकवचनान्तं चेत् क्रियापदमपि एकवचनान्तं भवति कर्मपद द्विवचनान्तं बहुवचनान्तं वा चेत् क्रियापदमपि द्विवचनान्तं बहुवचनान्तं भवति कर्म अनुसृत्य प्रथमपुरुषस्य मध्यमपुरुषस्य उत्तमपुरुषस्य वा क्रियापदस्य प्रयोगः भवति बालकेन
बालकेन शाकलेहः
खाद्यते
तत्र वचनसम्बन्धः कुत्र अस्ति तयोः मध्ये वचनसम्बन्धः चाकलेहः इति तयोः मध्ये अस्ति तत्र चाकलेहः कर्मपदं वा कर्तृपदं वा अस्मिन् वाक्ये
कर्मपदं महोदय कर्ता न
कर्मपदं समीचीनमपि तत्र सः तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये
बालकः
बालकः अस्तु इदानीं तत्र सहे तदेव वाक्यं कर्तृप्रयोगे किं भवति
कर्तरे बालकः चाकलेहं खादति
खादति समीचीनं महोदय बालकः चाकलेहं खादति इदानीं तत्र बालकेन चाकलेहः खाद्यते इति तत्र यदि अग्रे तत्र यदि भवान् तत्र अहं चाकलेहं खादामि इति तद् तस्य परिवर्तनं करोतु कर्मणि प्रयोगे किं भवति
अहं चाकलेहं खादामि मया चाकलेहः खाद्ये
तत्र आत्मनि प्रयोगः खाद्ये इति प्रायशः अस्ति अस्तु समीचीनं महोदय खाद्ये एव अस्तु समीचीनम् अतः तत्र पुरुष तत्र
परन्तु
क्षम्यतां मम दोषः धन्यवादः नरेश महोदय धन्यवादः तत्र मया चाकलेहः खाद्यते
खाद्यते
मया चाकलेहः खाद्यते एव
कर्मपदम् अनुसारम्
अनुसृत्य अत्र कर्मपदं तु तत्र चाकलेहः अतः तत्र प्रथमपुरुषः अतः खाद्यते इति समीचीनम् अस्तु इदानीं दोषः नास्ति अस्तु समीचीनम् अस्तु इदानीं तत्र पूर्वस्मिन् पुटे तत्र उदाहरणानि सन्ति तत् अपि एकवारम् अस्तु अस्तु अत्रैव तत्र अवधेयम् इति एव तत्र एकवारम् अग्रे
अस्ति खलु
तदपि तदपि पठामः सत्यं महोदय अस्तु रघुपतिमहोदय भवान् एव अग्रे पठतु महोदय
खाभागः अस्ति बालकेन बालकः तं ताडयति इति अस्ति इदानीं बालकेन सः ताड्यते इति भवति
सः अस्ति
बालकेन बालकः बालकेन त्वं ताड्यसे त्वं ताड्यसे इति अस्ति बालकः त्वम् इति खलु तत्र त्वं त्वां
बालकः
बालकः त्वां त्वां ताडयति इति अस्ति बालकः त्वं त्वां ताडयति इति अस्ति
खलु
त्वम् इति अस्ति
बालकेन
अहं ताड्ये अत्र ताड्ये इति अत्र अहम् इति कर्मपदमस्ति उत्तमपुरुषस्य अतः ताड्ये भवति ताड्यते ताड्यसे ताड्ये इति सः त्वम् अहम् इति अत्र
समीचीनम्
अहम् इत्यत्र बालकः बालकः मां ताडयति इति कर्तरिप्रयोगे
कर्तृप्रयोगे समीचीनं महोदय अहम्
इत्यत्र माम् इति भवति अत्र
अहं बालकः मां ताडयति इति अतः तत्र समीचीनं
ताड्ये
तत्र सः ताड्यते त्वं ताड्यसे अहं ताड्ये तत्र सः त्वम् अहं कर्मपदं समीचीनं बालकः कर्तृपदं तदेव बालकेन इति तृतीयविभक्त्यन्तम् अस्ति समीचीनं महोदय अग्रे
हा महोदय तत्र अवधेयं तदेव खलु
सत्यं सत्यं
अवधेयं वचनसम्बन्धः पुरुषसम्बन्धः च कर्तरिप्रयोगे बालकः श्लोकं पठति इदानीं बालकः प्रथमविभक्त्यामस्ति कर्तृपदं श्लोकः श्लोकम् इति द्वितीयविभक्ति कर्मपदं पठति इति क्रियापदमस्ति. इदानीं कर्मणि प्रयोगे यदा बालककर्तृपदं कर्तृपदे प्रथमविभक्ति सारि कर्तरिप्रयोगे प्रथमविभक्त्याम् आसीत्, इदानीं कर्मणि प्रयोगे तृतीयविभक्त्याम् अस्ति बालकेन. इदानीं श्लोकमासीत् द्वितीयविभक्त्यां विभक्त्यन्तम् आसीत् कर्तरि कर्मपदम्. इदानीं श्लोकः इति भवति क्रियापदम्. अति पठ्यते इति अस्ति अत्र. पठ्यते इति पठति इत्यस्य पट् धातु, पट् धातुयोग य इति प्रत्ययमध्ये आगच्छति. ते पठ्यते इति भवति, अतः पठ्यते इति श्लोक इति प्रथमविभक्तमस्ति, एकवचने अस्ति. अतः पठ्यते इत्यपि प्रथम सोरि प्रथमपुरुषे प्रथमपुरुषे अस्ति, अपि च एकवचने अस्ति.
हा समीचीनं महोदय. अतः तत्र पठति इति तत्र पठ्यते इति तत्र, अतः तत्र अंशत्रयमस्ति तत्र वाक्ये. तत्र कर्तृपदं कर्मपदं क्रियापदम्. एतावत् वयं किम् उक्तवन्तः, तत्र कर्तृपदस्य परिवर्तनं तत्र प्रथमाविभक्त्यन्तम् आसीत् कर्तृप्रयोगे, कर्मणि प्रयोगे तृतीयाविभक्त्यन्तं भवति. श्लोकम् इति तत्र कर्मपदमासीत् द्वितीयाविभक्त्यन्तम् आसीत् कर्तृप्रयोगे, इदानीं प्रथमाविभक्त्यन्तं भवति तत्र कर्मणि प्रयोगे. अपि क्रियापदस्यापि परिवर्तनं भवति, नो चेत् तत्र न जानीमः तत्र कर्मणि प्रयोगे अस्ति इति. अतः तत्र क्रियापदस्यापि परिवर्तनं भवेत् येन वयं जानीमः अस्तु अत्र कर्तृक्रियापदं नास्ति अन्यत् रूपम् अस्ति इति, अतः तत्र कर्मणि प्रयोगः स्यात् इति तत्र चिन्तनं भवेत्. अतः तत्र पठति इति स्थाने पठ्यते इति, तत्र पठ्यते इति रूपं तत्र धातुयोगः य योगः
य इति प्रत्ययः भवति.
हा सर्वत्र सत्यं, समीचीनं महोदय. हा तदनन्तरम् आत्मनिरूपम् आत्मनिपदिरूपं हा ते इति. हा
या एव अन्या अस्ति.
किं भगिनि?
या प्रत्यय, या प्रत्यये एव नाम.
ओ तत्र प्रत्ययस्य नाम किम् इति वा? प्रत्ययस्य नाम
सार्वत्रिके यक् इति प्रत्यय अस्ति. यक् सर्वत्र कर्मणि प्रयोगे सार्वत्रिकप्रत्ययेषु य इति भवति, यक् इति भवति, य इति.
ओके
धन्यवादः.
ककारस्य लोपः भवति, मध्ये य इति भवति.
अस्तु धन्यवादः महोदय, अहं न ज्ञातवान्. अस्तु अस्तु तर्हि इदानीं तत्र धन्यवादः महोदय. इदानीं तत्र सूर्यकुमारी भगिनी अग्रे पठति वा तत्र कर्मणि प्रयोगे वाक्यानि एवं भवन्ति इति. हा
कर्मणि प्रयोगे वाक्यानि एवं भवन्ति. प्रथमपुरुषः उदाहरणमस्ति, बालेन सह दृश्यते. सः कर्मणि प्रयोगे एकवचनं प्रथमपुरुषः. दृश्यते कर्मपदम् अनुसृत्य अनुवचनं पुरुषः भवति, दृश्यते.
इदानीं तत्र दृश्यते इति अस्ति, किन्तु तत्र कर्तृप्रयोगः कः अत्र?
बालः तं पश्यति.
हा समीचीनं भगिनि. अस्तु तत्र कर्तृप्रयोगे एतत् तत्र पश्यति इति तत्र यकारस्य योजनेन दृश्यति न तत्र पश्यपि दृश् तत्र तयोः मध्ये तत् एषः सम्बन्धः अस्ति खलु. हा तत्र पश्यति किन्तु भावे प्रयोगे अथवा कर्मणि प्रयोगे तत्र दृश्यते इति. समीचीनम्. अतः बालः तं पश्यति, इदानीं बालेन सह दृश्यते. द्वितीयवाक्यं
द्वितीय द्विवचनमस्ति, बालेन तौ दृश्येते.
हा
बालः तौ पश्यतः.
बालः तौ
पश्यतः.
अस्तु, तत्र इदानीं भवती यत् वाक्यम् उक्तवती तत् कर्मणि प्रयोगः वाक्यं वा कर्तृप्रयोगवाक्यं वा?
कर्तृप्रयोगं.
कर्तृप्रयोगवाक्यं, तत्र पुनः वदतु वाक्यं.
बालः थौ पश्यतः.
पश्यतः, अस्तु. तत्र कर्तृपदं किम्?
कर्तृपदं बालः.
अस्तु, वचनं किम्?
बालः एकवचनं.
अस्तु, क्रियापदं किम्?
ओ क्षम्यतां महोदय, बालः तौ पश्यति.
क्षम्यता. हा, अतः एव भगिनि, तत्र नियमाः तु सुलभाः एव सन्ति, किन्तु वारं वारं तत्र किञ्चित् क्लेशः भवति एव, अतः
क्षम्यताम्.
चिन्ता मास्तु भगिनि, अहमपि तदेव करोमि. हा, अतः चिन्ता मास्तु. बालः तौ पश्यति.
पश्यति.
हा,
तृतीयवाक्यं बालेन ते दृश्यन्ते. तृतीयवाक्यं कर्मपदं बहुवचनमस्ति. कर्तृपदं तृतीयविभक्ति एकवचनमस्ति. दृश्यन्ते कर्मपदं,
दृश्यन्ते क्रियापदं, दृश्यन्ते क्रियापदं,
क्रियापदं बहुवचनम् अस्ति. कर्मप्रदं कर्मपदम् अनुसृत्य.
हा, समीचीनम्. इदानीं कर्तृप्रयोगवाक्यं वदतु.
बालकाः.
न न, किमर्थं बालकाः?
ओ कर्तृप्रयोग,
कर्तृप्रयोग,
क्षम्यतां. बालः ते तान्.
हा, बालः तान्
पश्यति.
पश्यति, समीचीनं भगिनि. अस्तु, समीचीनम्. अस्तु, रघुवीरेन्द्रस्वामी अग्रे मध्यमपुरुषः.
प्रथमं
प्रथमपुरुषः कृतम्, इदानीं मध्यमपुरुषः महोदय. बालेन
करोतु महोदय.
बालेन त्वं दृश्यसे इति अस्ति तत्र अग्रिमपुटे महोदय, विंशति.
हा, न अहम् अस्मि, तत्रैव अस्मि.
अस्तु अस्तु, अत्र
बालेन त्वं दृश्यसे.
हा, तत्र कर्तृपदं किं, कर्मपदं किम् इति एकवारं वदतु महोदय.
त्वं दृश्यसे इति द्रष्टुं शक्यते, तत्र त्वम् अपि दृश्यसे अनुसरति कर्म.
अस्तु, तत्र कर्मपदं किम् अस्ति? कर्मपदं किं,
कर्मपदं,
न कर्मपदम्
महोदय, कर्म कर्मपदं त्वं खलु?
कर्मपदं त्वं, समीचीनं. कर्तृपदं,
कर्तृपदं बालः.
हा, अस्तु, तत्र बालेन इति कर्तृपदं. हा, अस्मिन् वाक्ये बालेन इति एव पदम् अस्ति, तदेव तत्र तत्र किन्तु बालः इति न वदामः, तत्र बालेन इति एव कर्तृपदम् अस्ति खलु अस्मिन् वाक्ये?
सत्यं.
हा, इदानीं तत्र कर्तृप्रयोगः करोतु महोदय.
बालकः,
बालः, बालः
त्वां, बालः त्वां पश्यति.
हा, बालः त्वां पश्यति, समीचीनम्. अस्तु, द्वितीयं.
द्वितीयम् अत्र कर्मणि, कर्मणि प्रयोगे बालेन युवां दृश्येथे, दृश्यते, दृश्येथे, दृश्यत्वे, दृश्येथे. बालेन, बालेन युवां दृश्येथे. कर्तरि वदामि वा महोदय इदानीं?
हा, इदानीं कर्तरि महोदय.
कर्तरि, बालकः युवां पश्यति.
युवां, हा, अस्तु. युवामिति, युवामिति समानमस्ति वा तत्र द्वितीयविभक्तौ अपि?
आं महोदय, द्विवचने तु प्रथमविभक्ति,
द्विवचने समानमस्ति. अस्तु, हा, अस्तु, समीचीनम्. अस्तु, बालः युवां पश्यति. अस्तु, तृतीयवाक्यम् इदानीं.
कर्मणि बालेन यूयं दृश्यत्वे,
दृश्यद्वे यूयम्
मध्यमपुरुषं बहुवचनं अतः दृश्यद्वे
बहुवचनं यूयं दृश्यद्वे इति अनुसरति अतः कर्मणि प्रयोगे वाक्यमस्ति यूयम् इति कर्मपदमस्ति
महोदय इदानीं कर्तृप्रयोगः
कर्तरि बालः यूयं पश्यति
बालः यूयं
युष्मान्
युष्मान् इति खलु महोदय
युष्मान् युष्मान् सत्यं युष्मान्
त्वां
त्वां युवां युष्मान् सत्यं बालः युष्मान् दृश्यद्वे
न न दृश्यद्वे न
न न दृश्य पश्यति पश्यति
पश्यति बालः युष्मान् पश्यति हा समीचीनं महोदय अस्तु धन्यवादः अस्तु नरेश महोदय किं महोदय
अभ्यासः नास्ति
सत्यं सत्यं नियमः सुलभः एव किन्तु यदि तत्र वारं वारं न कुर्मः तत्र मनसि किञ्चित् क्लेशः भवति एव अस्तु समीचीनम् अस्तु नरेश महोदय अग्रे
कारयतु
बालेन अहं दृश्ये बालेन तु कर्तृपदम् अहं कर्मपदं दृश्यक्रियापदम् अत्र कर्त्रे वाक्ये बालः मां पश्यति
बालः मां पश्यति समीचीनं महोदय अस्तु
द्वितीय बालेन आवां दृश्यावहे अत्र कर्तृवाक्य बालः आवां पश्यति
बालः आवां पश्यति समीचीनम् अस्तु
तृतीयबालेन वयं दृश्यामहे कर्तृवाक्य बालः
अस्मान्
पश्यति
बालः अस्मान् पश्यति समीचीनम् अथवा तत्र नौ अपि नः इति तत्र तदपि रूपं स्थापितुं शक्नुमः तत्र नः बालः नः पश्यति किन्तु अस्मान् अस्ति चेत् तत्र सुलभतया अवगन्तुं शक्नुमः अस्तु समीचीनम् अस्तु इदानीं तत्र अतः तत्र कार्यं किं तत्र यदि कर्तृप्रयोगे वाक्यम् अस्ति चेत् कर्मणि प्रयोगे प्रयोगरूपं प्रयोग तत्र वाक्यम् इच्छामः तत्र कर्तृपदस्य परिवर्तनं प्रथमाविभक्तितः
प्रथमाविभक्ति कर्मपदं द्वितीयविभक्ति कर्तृप्रयोगे
इदानीं परिवर्तनं कर्तुम् इच्छामश्चेत् तत्र किं कुर्मः कर्तृपदम् इदानीं किं भवति तृतीय विभक्त्यन्तं
तृतीय कर्मपदं प्रथमविभक्ति
विभक्त्यन्तम् अपि तत्र क्रियापदं किं तावत् तदेव भवति वा अथवा तदपि तस्यापि परिवर्तनं
कर्मणि प्रयोगे क्रियापदं कर्मपदम् अनुसरति कर्तृप्रयोगे क्रियापदं कर्तुः अनुसरति
कर्तारम् अनुसरति कर्तारम् अनुसरति कर्तारम् अनुसरति अपि केवलं तदेव क्रियापदम् इति नास्ति किन्तु क्रियापदस्य तत्र धातोः अपि तत्र परिवर्तनं भवति तत्र पठ पठति इति तत्र पठ धातुः इदानीं तत्र किं भवति पठ्य इति धातुः भवति तदनन्तरम् आत्मनेपदी धातुः भवति तत्र पठ्यते इति इति अस्ति समीचीनं अपि तत्र यदि धातुः आत्मनेपदी धातुः अस्ति चेत् पुनः कर्मणि प्रयोगे आत्मनेपदी धातुः एव भवति किन्तु तत्र परस्मैपदी धातुः अस्ति चेत् इदानीम् आत्मनिपदि धातुः भवति इति वार्ता अस्तु समीचीनम् अतः तत्र नरेश महोदय अधोभागे तत्र अवधेयम् इति अस्ति एकवारं पठतु तत्र पठति परस्मैपदी आत्मनेपदी तत्र किं भवति इति
आम् अवधेयं परस्मैपदी कर्तृप्रयोगे पठति कर्मणि प्रयोगे पठ्यते
हाँ
आत्मनेपदी कर्तृ प्रयोगे सेवते
तत्र धातुः कः सेवते इति क्रियापदस्य धातुः कः
सेव धातु
सेव इति धातुः हाँ इदानीं किं कुर्मः कर्मणि प्रयोगे
कर्मणि प्रयोगे धातु योगः य योगति सेव सेव योगत् य योगते सेव्यते
हा अतः सेवते किं भवति सेव्यते इति भवति पठति पठति पठ्यते भवति सेवते सेव्यते इति भवति हा समीचीनम् अस्तु अधोभागे तत्र वाक्यत्रयमस्ति तदपि एकवारं पठतु महोदय
उपरि दत्तेषु धातुरूपेषु परस्मै परस्मै पदिनाम् अन्ते ति इति आत्मनेपदिनाम् अन्ते ते इति च अस्ति कर्मणि प्रयोगे तु उभयविधानाम् अपि धातूनाम् अन्ते ते इति आत्मनेपदिरूपे रूपमेव भवति
अतः तत्र किं वदन्ति ते
कर्तृप्रयोगे अपि कर्मणि प्रयोगे अपि आत्मनेपदीरूपम् अस्ति चेत् अन्ते ते भवति
न न पुनः एकवारं महोदय तत्र परस्मैपदी धातु वा आत्मनेपदी धातु वा किन्तु कर्मणि प्रयोगे तस्य रूपं कीदृशं भवति आत्मनेपदी धातु इव
आत्मनेपदीरूपं
रूपमेव अस्ति हा पदिरूपमेव अस्ति हा तत्र परस्मैपदी धातु भवति चेत् अथवा आत्मनेपदी धातु भवति चेत् अपि अस्तु हा कर्मणि प्रयोगे प्रयोगे
धातोः अनन्तरं य इति श्रूयते
हा इति श्रूयते हा तत्र श्रूयते तत्र श्रूयते इति तत्र किम्
श्रूयते आत्मनि पदी अस्ति श्रूयते पठ्यते सेव्यते कर्मणि प्रयोगे अस्ति धातोः अनन्तरं य श्रूयते य अस्ति पठ् योग य योगते पठ्यते सेव् योग य योगते सेव्यते
तत्र श्रूयते इति पदमस्ति खलु महोदय श्रूयते इति तत्र कीदृशक्रियापदमस्ति तत्र
आत्मनेपदीरूपम्
आत्मनेपदी धातुः अस्ति किन्तु तत्र मूलक्रिया मूलधातुः कः शृणोमि शृणोति इति अस्ति खलु
शृणोति शृणोमि
हा तत्र श्रू इति धातुः इदानीं श्रूयते इति पदमस्ति क्रियापदमस्ति तद् अतः तत्र तत् क्रियापदं तत्र कर्मणि प्रयोगरूपं वा कर्तृप्रयोगरूपं वा
अत्र तु कर्मणि प्रयोग अस्ति
हा श्रूयते इति हा समीचीनं इति कर्मणि प्रयोगः हा तत्र अस्माभिः श्रूयते इति हा तत्र श्रूयते तत्र धातोः अनन्तरं य इति श्रूयते अतः शृणोति इति तत्र परस्मैपदी क्रियापदं किन्तु श्रू इति धातुः श्रूयोगः य योगः ते श्रूयते इति अस्तु समीचीनम् अस्तु इदानीं तत्र अस्तु तत्र अतः तत्र भूमिका इदानीं स्थापितम् अस्ति अस्माभिः नाम कर्तृप्रयोगस्य वाक्यमस्ति चेत् तत्र कथं तस्य परिवर्तनं कर्तुं शक्नुमः तत्र अंशत्रयत्रयं कर्तृपदस्य कर्मपदस्य अपि क्रियापदस्य क्रियापदस्य धातुः उपयुज्य तत्र यकारः स्थापित्वा तदनन्तरं ते इति तत्र आत्मनिपदीरूपं स्वीकृत्य क्रियापदं स्थापनीयं क्रियापदं कर्मपदम् अनुसरति पुरुषे अपि वचने अपि कर्तृपदस्य तृतीया विभक्त्यन्तं भवति तत्र कर्तृपदस्य केवलं तत्र तृतीया विभक्त्यन्तं किन्तु वचनं समानं तत्र प्रथमविभक्तौ तत्र बहुवचने आसीत् चेत् अत्रापि तृतीया विभक्त्यन्तं बहुवचनरूपं तावदेव अस्तु तर्हि इदानीं तत्र प्रायशः इदानीं तत्र उदाहरणानि द्रष्टुं शक्नुमः इति मन्ये ततः तत्र रघुपतिमहोदय तत्र इदानीं तत्र अष्टादश अधिकशततमे पुटे तत्र अधोभागे एतानि वाक्यानि परिशीलयते इति अस्ति एतानि वाक्यानि पश्यामः
एतानि वाक्यानि अस्तु एतानि वाक्यानि परिशीलयत कर्तरिप्रयोगे बालः पाषाणं क्षिपति इदानीं अत्र बालेन पाषाणः क्षिप्यते क्षिप् धातु अस्ति य इति प्रत्यय ते इति मध्ये य इति ते क्षिप्यते बालेन पाषाणः क्षिप्यते
इदानीं तत्र तदेव वाक्यं तत्र यदि तत्र कर्तृपदस्य तत्र द्विवच बहुवचनरूपं स्वीकुर्मश्चेत् किं भवति बालाः इति
बालाः बालैः पाषाणः क्षिप्यते
कर्तृरूपं बालाः पाषाणं
बालाः पाषाणं क्षिपन्ति इति भवति
क्षिपन्ति अत्र इदानीं बालैः पाषाणः
पाषाणः क्षिप्यते पाषाण इति कर्मपदम् एकवचने अस्ति
इदानीं अत्र समीचीनं महोदय इदानीं तत्र पाषाणम् इति स्थाने तत्र पाषाणान् इति अस्ति चेत् बालः पाषाणान् क्षिपति
बालेन पाषाणाः क्षिप्यन्ते इति
क्षिप्यन्ते इति रूपं समीचीनं महोदय अस्तु
बालेन पाषाणौ क्षिप्येते
समीचीनं महोदय तत्र यदि एतादृशं कुर्मः तदेव
अभ्यास आवश्यकमस्ति तत्र विलम्बेन
समीचीनं महोदय इदानीम् अग्रिमं तत्र सेवकः
वयं चिन्तयित्वा वदामः चेत् जनाः अग्रे गच्छन्ति तादृशसमयः वयं स्वीकुर्मः
सत्यं महोदय सत्यं तत्र आटोमेटिक् इति यद् वदन्ति यान्त्रिकरूपेण तद्
वक्तव्यमस्ति अन्यथा सारस्वरं न भवति
सत्यं
सेवकः धनम् इच्छति इच्छति अस्ति सेवकेन धनम् इष्यति इषि धातुः अस्ति तत्र कर्तरिप्रयोगे इच्छति इति भवति इदानीम् इषि धातुः यकार ते इष्यते सेवकेन धनम् इष्यते सेवकेन धनानि इष्यन्ते सेवकेन धने इष्येते
समीचीनं धने इष्यते समीचीनं महोदय अस्तु इदानीं तत्र सेवकाः इति
सेवकाः धनम् इच्छन्ति सेवकैः धनम् इष्यते इति
समीचीनं महोदय धन्यवादः
सेवकाभ्यां धनम् इष्यते
सेवकाभ्यां धनम् इष्यते समीचीनं महोदय अस्तु इदानीं रघुवेन्द्रस्वामी अग्रे
जिग्रति महोदय
क्षालयति सा शाटिकां क्षालयति भवान् कुत्र अस्ति ओ महोदय तत्र वयं अग्रे न गतवन्तः किन्तु तत्र प्राक् यदस्ति तत्र स्मः महोदय अष्टादश अधिकशततमे पुटे तत्र उदाहरणानि तत्र एव दत्तानि सन्ति महोदय अतः
सत्यं महोदय सा शाटिकां क्षालयति सा क्षालयति यद्यपि यकारः अस्ति सुरादिगणीयप्रायः
तत्र क्षालिति तत्र
क्षालयति
किन्तु क्षालिति एव धातुः
सा क्षालयति अतः कर्तरिप्रयोगः अस्ति कर्मणि प्रयोगे तया शाटिका क्षाल्यते
हा समीचीनं तत्र सा इति स्थाने तया इति तृतीयाविभक्त्यन्तं शाटिकाम् इति स्थाने प्रथमाविभक्त्यन्तं शाटिका क्षालयति इति पदस्य स्थाने तत्र क्षाल्यते अस्तु इदानीं तत्र बहुवचने करोतु महोदय कर्तृपदं बहुवचने इदानीं सा इति स्थाने बहुवचनं सा
बहुवचनं महोदय सा ते ताः भिः तर्हि तया तयाभिः
न प्रथमतया तत्र कर्तृपदप्रयोगः कर्तृप्रयोगः वदतु ताः ताः किं
कर्तरि ओ ताः शाटिकां क्षालयन्ति
हा ताः शाटिकां क्षालयन्ति समीचीनम् इदानीं ताः इति स्थाने तृतीयविभक्ति
ताभ्यां ताभिः
समीचीनं
शाटिका शाटिका क्षाल्यते
हा शाटिका क्षाल्यते समीचीनं महोदय अस्तु इदानीं तत्र इदानीं तत्र शाटिकाम् इति सा शाटिकां क्षालयति इति स्थाने शाटिकाम् इति कर्तृपदम् एकवचने अस्ति इदानीं तत्र बहुवचनरूपं वदतु तत्र सा
शाटिके
शाटिके द्विवचने हा बहुवचने
क्षालयतः बहुवचनं वा महोदय शाटिकान्
न न शाटिका इति स्त्रीलिङ्गे
शाटिका
हा लता लते लताः लतां लते लताः
लताः शाटिकाः
हा ता ततः सा शाटिकाः
क्षालयति
हा इदानीं कर्मणि प्रयोगे
तया शाटिकाः क्षाल्यन्ते
हा समीचीनं महोदय क्षाल्यन्ते हा यतोहि इदानीं शाटिकाः इदानीं कर्तृपदं तत्र प्रथमविभक्त्यन्तमस्ति अपि क्रियापदं तत्र प्रथमविभक्त्यन्तमस्ति अपि क्रियापदं तम् अनुसरति अतः क्षाल्यन्ते इति इदानीं तत्र द्वयमपि बहुवचने इदानीं करोतु कर्तृपदं कर्मपदं
ताः शाटिकाः क्षालयन्ति ताभिः शाटिकाः क्षाल्यन्ते
हा इति उत्तमं महोदय अस्तु समीचीनं अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे ओ क्षम्यतां भगिनि एकनिमिष भगिनि अस्तु अस्तु क्षम्यतां रघुवरेन्द्रस्वामी भवानेव तत्र अग्रिमं वाक्यमपि करोतु तत्र
अहं लेखनीं नयामि कर्तृप्रयोगे कर्मणि प्रयोगे मया लेखनी नीयते
हा तत्र नयामि इति तत्र नी इति धातुः अतः तत्र नियोगः नियमः कः धातुः योगः
योगः य योगः
ते हा आत्मनिपदिरूपं हा अतः तत्र नीयते हा मया लेखनी नीयते हा समीचीनं लेखनी नीयते एकवचने अस्ति अस्तु इदानीं तत्र वयम् इति वदतु
वयं लेखनीं नयामः
हा इदानीं
कर्मणि प्रयोगे मया अस्माभ्याम् अस्माभिः लेखनी नीयते
नीयते समीचीनं हा अस्तु नीयते इदानीं तत्र लेखनीयम् इति स्थाने बहुवचनं वदतु कर्मपदस्य बहुवचनं
अहं लेखन्यः नयामि
न तत्र नदी नद्यौ नद्यः नदीं नद्यौ
नदीः
नदीः समीचीनं महोदय हा
दीर्घः भवति
हा
लेखनीः अहं लेखनीः नयामि
हा इदानीं कर्मणि प्रयोगे
मया लेखन्यः नीयन्ते
नीयन्ते समीचीनं महोदय. इदानीं बहुवचने द्वयमपि बहुवचने तत्र कर्तृपदं कर्मपदं.
वयं वयं लेखनीः नयामः. कर्मणि प्रयोगे अस्माभिः लेखन्यः नीयन्ते.
नीयन्ते समीचीनं महोदय, उत्तमम्. अस्तु धन्यवादः. अस्तु सूर्यकुमारी भगिनी अग्रे.
महोदय, बालिकाः प्रश्नं लिखन्ति. कर्मणि बालिकाभिः प्रश्नः लिख्यते. लिख् धातु लिख्यते.
हा समीचीनं, लिख् धातुः लिख्यते. समीचीनं भगिनि. हा इदानीं तत्र बालिकाः इति स्थाने तत्र एकवचनं वदतु.
बालिका प्रश्नं लिखति. कर्मणि प्रयोगे बालिकया प्रश्नः लिख्यते.
हा समीचीनम्. इदानीं तत्र बालिकाः प्रश्नं लिखन्ति इति स्थाने प्रश्नम् इति स्थाने तत्र बहुवचनं स्थापयतु.
बालिकया प्रश्नान् लिख्यन्ते.
न न न, कर्तृप्रयोगं प्रथमं वदतु. तत्र रूपं किं?
बालिकाः प्रश्नान् लिखन्ति.
बालिकाः प्रश्नान् लिखन्ति. इदानीं
कर्मणि प्रयोगे बालिकाभिः प्रश्नाः लिख्यन्ते.
हा लिख्यन्ते इति. इदानीं तत्र किम् अपेक्षितं? तत्र आत्मनिपदि धातूनां तत्र रूपाणि तत्र कथं भवति इति खलु. तत्र वर्तते वर्तेते किमस्ति आत्मनिपदि धातूनां? वर्तते वर्तेते वर्तन्ते वर्तसे
वर्तेते
वर्तद्वे वर्ते
वर्तावहे वर्तामहे.
हा इति ज्ञानं भवेत् तावदेव. समीचीनं भगिनि. अतः तत्र लिख्यते लिख्येते लिख्यन्ते लिख्यसे लिख्येते लिख्यद्वे लिख्ये
लिख्यामहे
लिख्यामहे इति ज्ञानमस्ति चेत् तत्र कर्तुं शक्नुमः. समीचीनं भगिनि. हा अस्तु, इदानीम् अग्रिमं.
भवान् घटीं पश्यति.
घटीः पश्यति.
घटीः पश्यति.
हा तत्र घटीः इति वचनं किं?
बहुवचनं.
हा नदीः बहुवचनं. समीचीनम् अस्तु. इदानीं कर्मणि प्रयोगे
भवता गच्छः गच्छः दृश्येत.
दृश्यन्ते 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 दत्तमस्ति खलु तत्र. दृश्यन्ते भवता गट्यः दृश्यन्ते. इदानीं तत्र भवान् इति स्थाने बहुवचनं स्थापयतु.
भवन्तः गटीः पश्यन्ति.
हा पश्यन्ति. हा इदानीं
कर्मणि प्रयोगे भवतः कर्मणि प्रयोगे भवतः भवतः तृतीयबहुवचनं.
तृतीयबहुवचनं किमस्ति तत्र? भवतः भवद्भ्यां
भवद्भिः गतीः भवद्भिः कर्तृप्रयोगं महोदय.
इदानीं कर्मणि प्रयोगे खलु यतोहि भवद्भिः इति अस्ति.
गच्छः दृश्यन्ते.
हा समीचीनम् अस्तु. इदानीं तत्र भवान् घटीः पश्यति इति तत्र घटीः इति स्थाने एकवचनं वदतु. तत्र घटीः मास्तु, इदानीम् एकवचने.
क कर्तृप्रयोग भवत्
भवान् भवान् तत्र कर्तृप्रयोगे
भवान् घटी पश्यति
घटीं नदीं खलु
घटीं पश्यति
हा भवान् घटीं पश्यति इदानीं कर्मणि प्रयोगः
भवता घटी दृश्यते
दृश्यते हा भवता घटी दृश्यते समीचीनम् इदानीं तत्र भवन्तः घटीं घटीं
भवन्तः घटीं पश्यन्ति भवद्भिः घटी दृश्यते
दृश्यते समीचीनं हा घटी दृश्यते समीचीनं भगिनी हा उत्तमम् अस्तु अग्रे नरेश महोदय
महोदय त्वम् आसन्दान् मार्जयसि
हा त्वम् आसन्दान् मार्जयसि हा इदानीं कर्मणि प्रयोगरूपं
कर्मणि त्वया आसन्दाः मार्जन्ते
हा तत्र प्रायशः तत्र धातु किम् अस्ति तत्र
धातु मार्ज धातु मार्ज अस्ति
हा तत्र प्रायशः तत्र किं
मार्ज एव अस्ति मार्ज
हा मृज्
चुराडिगणे अस्ति न न आमां मृज् मृज् दातः मृजेर् वृद्धिः अस्ति भवति आम्
आम् मृज् तत्र हा चुरादिखण्डे अपि अस्ति अधादिखण्डे अपि अस्ति महोदय तत्र
वृद्धिः सर्वदा भवति तत्र मार्जे एव भवति
अतः तत्र अस्तु तत्र मार्ज् मार्ज्यते इदानीं महोदय तत्र नरेश् महोदय तत्र मार्जयन्ते इति अस्ति एकवारं तत्र आत्मनेपदी धातु आत्मनेपदी क्रियापदम् इति चिन्तयित्वा एकवारं तत्र नवरूपाणि वदतु महोदय मार्ज्यते
मार्ज्यते मार्जयते मार्जन्ते मार्जसे मार्जयेथे मार्जध्वे मार्जये मार्जावहे मार्जामहे
हा इति समीचीनं महोदय हा अस्तु इदानीं तत्र त्वम् आसन्दान् मार्जयसि त्वया आसन्दाः मार्ज्यन्ते इति हा इदानीं तत्र आसन्दान् इति स्थाने एकवचनं वदतु
त्वम् आसन्दं मार्जयसि कर्मणि कर्मणि त्वया आसन्दः मार्जयति मार्जयते
हा मार्जयते इति समीचीनम् इदानीं तत्र त्वम् इति स्थाने तत्र बहुवचनं
यूयम् आसन्दान् मार्जयसि युष्माभिः आसन्दाः मार्जन्ते
हा यूयम् आसन्दान् मार्जयन् मार्जय कर्तृप्रयोगे रूपं किम् आसीत् महोदय यूयम्
आसन्दान् मार्जध्वे
न न न कर्तृप्रयोगे कर्तृप्रयोगे यूयम्
यूयम् आसन्दान् मार्जयन्ति
पठति पठति पठतः पठन्ति पठसि पठतः मार्जयथ हा तत्र पठति पठतः पठन्ति पठसि पठतः पठथ हा पठामि पठावः पठामः अतः तत्र यूयम् आसन्दान् मार्जयथ हा इदानीं कर्मणि प्रयोगे
युष्माभिः आसन्दाः मार्जयन्ते
मार्जयन्ते इति समीचीनम् इदानीं तत्र यूयम् आसन्दः मार्जयथ
यूयम् आसन्दः
आसन्दम् आसन्दं क्षम्यतां हा यूयम् आसन्दं
मार्जयथ युष्माभिः आसन्दः मार्जयते
इति समीचीनं अस्तु समीचीनं महोदय इदानीम् अन्तिमं वाक्यम् अत्र
वयम् आपणं गच्छामः कर्तरी अस्ति कर्मणि अस्माभिः आपणः गम्यते अत्र वयं
वयं स्थाने किं वयम् इति स्थाने किम् अभवत् वयम् इति किम् अभवत् वयम् अस्माभिः अस्माभिः इति अभवत् आपणं किम् अभवत् आपणः इति अभवत् गच्छामः तत्र धातुः कः गच्छामः इति क्रियापदस्य धातुः
गम्
धातुः अतः तत्र रूपं किम् अभवत् गम् योगः यकारः ते अतः अतः गम्यते गम्यते अस्माभिः आपणः गम्यते इदानीम् अहम् आपणम्
अहम् आपणं गच्छामः अस्माभिः
न न गच्छामि गच्छामि अहम् आपणं गच्छामि
अहम् आपणं गच्छामि कर्मणि प्रयोगे मया आपणः गम्यते
गम्यते आपणः मया आपणः गम्यते हा समीचीनम् इदानीं तत्र वयम् आपण आपणम् इति स्थाने बहुवचनं स्थापयतु
आपणान् वयं गच्छामः कर्मणि अस्माभिः आपणः
न न इदानीं बहुवचने अस्ति खलु
आपणाः गम्यन्ते
हा आपणाः गम्यन्ते केन अथवा कैः अस्माभिः अस्माभिः आपणाः गम्यन्ते इति समीचीनम् इदानीम् अन्तिमं तत्र किम् आसीत् तत्र एतावत् तत्र अहम् आपणं वयम् आपणं वयम् आपणान् अहम् आपणान् गच्छामि
कर्मणि अस्ति मया आपणाः गम्यन्ते
गम्यन्ते इति हा समीचीनं महोदय अस्तु उत्तमं अस्तु इदानीं तत्र प्रायशः तत्र पाठमपि तत्र द्रष्टुं शक्नुमः किन्तु तस्मत् प्रायशः अस्मिन्नेव पुटे तत्र यदि एकवारं पुनः तत्र उपरि तत्र यानि वाक्यानि सन्ति तानपि तानि वाक्यानि अपि परिशीलयामश्चेत् लाभः भवति इति मन्ये अतः तत्र उपरि अपि पश्यामः तत्र रघुपतिमहोदय उपरि एव तत्र छात्रेण श्लोकः पठ्यते इति अस्ति खलु तत्र कर्तृरूपं वदामः महोदय
छात्रेण श्लोकः पठ्यते छात्रः श्लोकं पठति इति
हा इदानीं तत्र बहुवचने अपि तत्र एकवारं
छात्रैः श्लोकः पठ्यते छात्रैः अथवा छात्राभ्यां श्लोकः पठ्यते इति अस्ति इदानीं छात्राः श्लोकं पठन्ति इति अस्ति
छात्राः समीचीनम् अथवा छात्रौ श्लोकं पठतः समीचीनं महोदय अस्तु हा अस्तु समीचीनम् इदानीं तत्र अग्रिमवाक्यम्
अग्रे बालेन चाकलेहः खाद्यते इति अस्ति इदानीं तत्र बालः चाकलेहं खादति इति अस्ति
खादति
बालाः चाकलेहं खादन्ति बालैः चाकलेहः खाद्यते इति अस्ति
समीचीनं
बालाः चाकलेहाः खादन्ति बालैः खादन्ति बालैः चाकलेहाः खाद्यन्ते
इति समीचीनं महोदय अस्तु उत्तमं धन्यवादः महोदय अस्तु अग्रे रघुवेन्द्रस्वामी
महोदय
सर्वं मधुरं मधुरम् अस्ति महोदय.
सत्यं चाकलेहः इदानीं फलरसः अपि अस्ति महोदय.
कुत्र पठनीयं महोदय?
उपरि एव महोदय, उपरि एव. तत्र मया फलरसः पीयते इति वाक्यं.
मया फलरसः पीयते.
कर्तृप्रयोगः कः?
कर्तरि महोदय. अहं फलरसं पिबामि.
हा, अहं फलरसं पिबामि. हा, इदानीं तत्र बहुवचने वदतु. तत्र अहं फलरसं पिबामि, वयं
अहं फलरसं वयं फलरसं पिबामः.
इदानीं कर्मणि प्रयोगे
अस्माभिः फलरसः पीयते.
पीयते एव, समीचीनं महोदय. अस्तु,
वयम्
इदानीं तत्र बहुवचने
वयं फलरसाः पिबामः,
न फलरसान्, फलरसान् पिबामः.
ओ, क्षम्यतां महोदय. वयं फलरसान् पिबामः. अस्माभिः फलरसाः पीयन्ते.
हा, इति समीचीनं महोदय. अस्तु, अग्रिमं.
तेन भिक्षा त्यज्यते. यक्, तेन भिक्षा त्यज्यते. तु कर्मणि अस्ति.
कर्तृरूपं.
सः भिक्षां त्यजति.
हा, सः भिक्षां त्यजति. इदानीं सः इति स्थाने बहुवचनं.
ते भिक्षां त्यजन्ते.
त्यजन्ति, त्यजन्ति.
त्यजन्
त्यजति, त्यजति. हा, त्यजति इति परस्मैपदी आसीत्. हा, त्यजन्ति. ते भिक्षां त्यजन्ति.
त्यजन्ति.
इदानीं कर्मणि रूपं.
कर्मणि रूपं ते खलु, ते युष्माभिः.
न न, तैः खलु, ते इति.
तेन ताभ्यां तैः, तैः भिक्षा इति तदेव.
तैः भिक्षा,
किन्तु भिक्षाः भवति.
सत्यं, किन्तु अत्र केवलम् अभ्यासार्थं. तत्र
तैः भिक्षा त्यज्यते.
त्यज्यते एव. हा, इदानीं तत्र तैः
बहुवचनं. तैः भिक्षाः त्यज्यन्ते.
हा, इदानीं कर्तृरूपं.
ते भिक्षान्
त्यज्य. न, भिक्षा इति स्त्रीलिङ्गे अस्ति, अतः तत्र
महोदय भिक्षाः.
हा, भिक्षाः एव. हा, ते
भिक्षाः त्यजन्ति.
त्यजन्ति इति, समीचीनं महोदय. हा, उत्तमम्. अस्तु, अग्रे सूर्यकुमारी भगिनी.
धन्यवादः.
धन्यवादः महोदय. तत्र अभ्यासः, एषः अभ्यासः भवति. तत्र आङ्ग्लभाषायाम् अस्ति महोदय. तत्र वदामि, तत्र हास्यास्पदम् अस्ति किन्तु सत्यमेव. तत्र वदामि, तत्र इन् थियरि देर् इस् नो डिफ्रेन्स् बिट्वीन् थियरि इन् प्राक्टिस्. इन् प्राक्टिस् देर् इस्. श्रुतवान् वा पूर्वं?
प्रायः स्मरणे नास्ति.
नरेश् महोदय श्रुतवान् वा?
न, अहं न श्रुतवान्.
इन् थियरि देर् इस् नो डिफ्रेन्स् बिट्वीन् थियरि इन् प्राक्टिस्. इन् प्राक्टिस् देर् इस्. बहु गम्भीरवाक्यम् अस्ति. गम्भीर
सत्यं, हास्यास्पदः अस्ति, परन्तु तदेव अस्ति.
सः यदि मह्यं बहु रोचते महोदय एतत् वाक्यं. हा, अतः तत्र बहुवारम् उपयोगं
करोमि. मध्ये अस्ति, यु नो, द एथिक्स् एण्ड् वेल्यूस् इन् थियरि.
सर्वं सर्वं सर्वम् एतदेव. हा, अतः अत्रापि तत्र
प्राक्टिस् लाट्
आफ़्. हा, तत्र मनसि जानीमः, अस्तु तत्र कर्मणि प्रयोगे किम् अस्तु, तत्र नियमान् जानामि इति चिन्तयामः, किन्तु यदि प्रयोगं कुर्मः तत्र चिन्तनम् आवश्यकमस्ति, तावदेव. हा,
भारते रैट् हेण्ड् ड्रैव् अस्ति, सडन्लि लेफ्ट् हेण्ड् रैट् न भवति.
सत्यं महोदय,
सत्यं भवति तर्वात.
सत्यं महोदय,
तदेव लेफ्ट् हेण्ड् अस्ति अस्माकं कृते. अभ्यासः नास्ति खलु.
सत्यं महोदय, अतः अस्तु अस्तु. इदानीं तत्र सूर्यकुमारी भगिनी अग्रे.
महोदय, अस्माभिः देवः अच्यते. अच् धातुः अस्ति. अहं चिन्तयामि सदादिगणे
अर्चति, अर्चति इति प्रायः अर्चति इति अस्ति खलु भगिनि
बादिगणेन. ओके, कर्मणि प्रयोगे कर्तृप्रयोगे वयं देवम् अर्चामि अर्चामः.
वयं देवम् अर्चामः, अर्चामः. समीचीनम्. इदानीम् अहं देवम् अर्चामि,
अर्चामि
कर्मणि प्रयोगं प्रयोगः.
मया देवः अर्च्यते,
अर्च्यते. समीचीनम्. इदानीं तत्र मया देवः अर्च्यते, मया देवाः किं भवति? मया देवाः,
मया देवाः
कर्मणि प्रयोगे अस्ति. अर्च्यन्ते, समीचीनं. मया देवाः अर्च्यन्ते. इदानीं कर्तृरूपम् अहं
देवाः,
देवान्
अर्चयामि,
अर्चामि, अर्चामि. तत्र प्रायः अर्चयामि इति एव प्रायः भवेत्. तत्र अर्चति अथवा अर्चति इति एव, अर्चयति इति अपि अस्ति, तत्र अर्चति अपि अस्ति. अर्चामि इति एव स्वीकुर्मः भगिनि. अत्र अहं देवम् अर्चामि इति. अस्तु,
चुरादिगणे अपि अस्ति, भुवादिगणे अपि अस्ति.
सत्यं भगिनि, सत्यं, सत्यं. अर्चति, सत्यं, सत्यमेव. कत् किन्तु तत्र प्रायः तत्र प्रसिद्धः तु तत्र प्रायः तत्र भुवादिगणे इति एव मन्ये खलु.
ओके, अर्चति,
अर्चति इति.
द्वितीयवाक्य नेत्र,
यत् ऐ मीन् नाम तत्र चुरादिगणे अस्ति, तत्तु निश्चिति एव. अतः तत्र रूपभेदः नास्ति.
कर्मणि प्रयोगे रूपभेदः नास्ति.
सत्यं, सत्यं भगिनि. अर्च्यते एव अस्ति, सत्यम्. अस्तु, इदानीं तत्र नेत्राः,
नेत्र,
नेत्र, क्षम्यतां, नेत्र, नेत्र
कर्तृपदं, नेतृ. देशः रक्षते, नेता देशं रक्षति.
नेता देशं रक्षति, रक्षति. समीचीनम्. इदानीं तत्र देशः इति स्थाने देशाः,
नेत्र देशाः रक्ष्यन्ते.
इदानीं तत्र कर्तृप्रयोगे
नेत्र, नेत्रौ, नेतारः.
न, नेत्र देशाः रक्षन्ते इति कर्मणि प्रयोगः. इदानीं कर्तृप्रयोगः कः?
नेता देशान् रक्षति
इति एव. नेता देशान् रक्षति. इदानीं नेत्र इति स्थाने बहुवचनं तत्र नेता, नेता इति अस्ति. नेता इति पदस्य नेतारः,
नेतारः
देशान् रक्षन्ति,
रक्षन्ति.
नेतारः, नेतारः देशान् रक्षन्ति. इदानीं कर्मणि सत्यं,
प्राक्टीस् नास्ति.
सत्यं महोदय. इदानीं तत्र कर्मणि रूपं किमस्ति?
नेतृभिः बहुवचनं महोदय,
नेत्रभिः समीचीनं, तृतीयविभक्तिः
देशं
देशाः देशाः
देशाः नेत्रभिः देशाः रक्ष्यन्ते
रक्ष्यन्ते इति समीचीनं भगिनि. अस्तु अग्रे नरेश महोदय.
युष्माभिः सत्कार्यं क्रियते. युष्माभिः कर्तृप्रयोगे तु यूयं यूयं सत् सत्कार्यं करो करोषि
न न करोषि कुरुतः
कुरुतः
कुरुतः करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुतः करोमि
करोमि कुर्वः
कुर्मः. समीचीनं. हा अतः तत्र यूयं सत्कार्यं कुरु
कुरुतः
कुरुतः. हा समीचीनम्. इदानीं तत्र सत्कार्यमिति स्थाने तत्र बहुवचन बहुवचनं स्थापयतु.
यूयं सत्कार्यान् सत्कार्यान्
न न सत्कार्यम् इति एव कार्यम् इति एव अस्ति. कार्यम् अस्ति चेत् प्रथमविभक्तिरूपम् अस्ति चेत् तत्र
प्रथमविभक्ति
नपुंसकलिङ्गपदम्. न न प्रथमतया तत्र कर्मणि रूपमेव वदतु महोदय. तत्र युष्माभिः
युष्माभिः सत्कार्यम्
इदानीं सत्कार्यम् इति स्थाने सत्कार्यम् इति पदस्य बहुवचनं किं
सत्कार्यान्
न न सत्कार्यम् इति प्रथमविभक्तिरूपम्
सत्कार्यं सत्कार्यं नपुंसकलिङ्ग.
इदानीं बहुवचने
बहुवचने कार्यान्
न न वनं वनम् इति पदस्य बहुवचनं किं
कार्याणि.
हा कार्याणि इति णकारः णत्वं भवति तत्र. कार्याणि सत्कार्याणि
क्रियन्ते
क्रियन्ते
कार्याणि क्रियन्ते.
हा समीचीनं महोदय. हा इदानीं कर्तृर्वदतु. हा
यूयं सत् सत्कार्याणि
कुरु
कुरुथ
कुरुथ एव. हा समीचीनं कुरुथ यूयं सत्कार्याणि कुरुथ इति समीचीनं. हा अस्तु तत्र इदानीम् एक तत्र युष्माभिः स्थाने एकवचनं स्थापयतु तत्र
त्वया त्वया सत्कार्यं क्रियते.
हा त्वया सत्कार्यं क्रियते कर्तृरूप कर्तृप्रयोगे त्वं
त्वं सत्कार्यं करोषि.
हा त्वं सत्कार्यं करोषि. इदानीं तत्र त्वं सत्कार्याणि करोषि इति
त्वं सत्कार्याणि करोषि
कर्मणि
प्रयोगे त्वया सत्कार्याणि क्रियन्ते
क्रियन्ते इति समीचीनम्. अग्रिमं
भवद्भिः चोरः ताड्यते. कर्तृप्रयोगे भवता भवान्
न न भवद्भिः अस्ति भवद्भिः इति वचनं किं
भवन्तः चोरं चोरं भवन्तः ताडयति
तत्र ताडयन्ति इति प्रायशः अस्ति
चोरं ताडयन्ति
ताडयन्ति भवन्तः चोरं ताडयन्ति. इदानीं तत्र भवान् चोरं ताडयति इति तत्र कर्मणि प्रयोगः
भवान् चोरं ताडयति भवता चोरः ताड्यते
इति. समीचीनम्. इदानीं तत्र भवद्भिः चोराः अस्ति चेत् किं भवति?
चोरान्.
न न, भवद्भिः चोराः, तत्र क्रियापदं किं?
भवद्भिः चोराः ताड्यन्ते
इति कर्मणि प्रयोगः. हा, इदानीं कर्तृप्रयोगः.
भवन्तः चोरान् चोरान्
ताडयन्ति. समीचीनं महोदय. समीचीनं महोदय. हा, उत्तमम्. अस्तु, तत्र तत्र इदानीं तत्र अभ्यासः तत्र जातः. समीचीनमेव. अस्तु, तत्र सर्वं कुर्मः वा अद्य एव अथवा अग्रिमवर्गे अपि किञ्चित् स्थापयामः वा? किं चिन्तनम्?
अभ्यासार्थं स्थापयामः, अनन्तरं किञ्चित्.
हा, नो चेत् तत्र अग्रिमवर्गे सर्वं विस्मरणं
विस्मरणं भवति पुनः.
सत्यं महोदय. अस्तु, अतः तत्र अग्रे प्रायशः तत्र वदतु महोदय.
न न, एकवारं सर्वं न खादामः.
सत्यं महोदय. हा, अतः इदानीं तत्र अग्रे तत्र साक्षात् पाठः यः अस्ति तम् आरम्भं कुर्मः. अस्तु, अतः तत्र रघुपति महोदय, तत्र भवान् आरम्भं करोति वा तत्र?
कर्मणि, अस्तु, कर्मणि प्रयोगः वर्तमानकाले. एतत् सम्भाषणम् उच्चैः पठत. कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य. सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति. तत्र संस्कृत आचार्य अस्ति, तस्य संस्कृत कार्यक्रमे महती आसक्तिः अस्ति. सः एकां गोष्ठीम् आयोजयति, तस्य विषये चर्चां करोति, आहूय कार्यक्रमणविषये.
हा, समीचीनं. अत्र तत्र
महोदय
किं वदतु महोदय,
कः पृष्ठः एकवारं वदति?
हा, तत्र षोडशाधिकदशशतं.
षोडश वा? ओ, वेर्
गुड्. हा, तत्र साक्षात् पाठः महोदय. वयं पाठे तत्र किं कृतवन्तः? तत्र अग्रे अवधेयं यद् तत् सर्वं पठितवन्तः, किन्तु साक्षात् पाठः यः अस्ति तं न पठितवन्तः एतावत्.
हा, गतवान् किन्तु कुत्रापि न दृष्टः.
क्षम्यतां महोदय. हा, तत्र क्रमेण कर्तुम् इष्टवान्, किन्तु क्रमेण नाम तत्र प्रथमतया तत्र तावत्
परितः दृष्ट्वा अग्रे अनन्तरं
तत्र किं तत्र उपहारगृहं तत्र गन्तुं प्राक् तत्र बोर्ड् पठामः खलु, किं किम् अस्ति?
अनन्तरमेव गच्छामः.
अनन्तरमेव गच्छामः.
सम्यक्.
समीचीनम्.
अस्तु, प्रधानाचार्यः, संस्कृतसप्ताहस्य आचरणावसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते. अत्र क्रियन्ते इति अस्ति. अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु इति पृच्छति.
इदानीं तत्र किञ्चित् वदतु महोदय तत्र.
हा, अस्तु, क्रियन्ते इति अस्ति, तत्र कर्मणि प्रयोगे अस्ति, अस्माभिः क्रियन्ते इति अस्ति, कर्मपदमस्ति कार्यक्रमाः इति अस्ति, तत्र प्रथमविभक्तौ भवति, प्रथमपुरुषे भवति, बहुवचने अस्ति कार्यक्रमाः क्रियन्ते.
हा, कार्यक्रमाः क्रियन्ते अस्माभिः. अतः तत्र लघुवाक्यम् अस्ति यथा भवता उक्तं, तत्र अस्माभिः कार्यक्रमाः
क्रियन्ते
इति. हा, इदानीं तत्र तत्र कर्तृप्रयोगे वयं
प्रतिवर्षं बहून् कार्यक्रमः खलु, बहून् कार्यक्रमान् कुर्मः
वयं कार्यक्रमान् कुर्मः. समीचीनं महोदय. हा, अस्मिन् वर्षे अपि
कार्यक्रमः क्रियन्ते खलु, अस्मिन् वर्षे अपि वयं कार्यक्रमान् कुर्मः खलु
हा इति सः पृच्छति समीचीनं महोदय हा अस्तु
राजेन्द्रः इदानीं निश्चयेन श्रीमन् अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः इति अस्ति सज्जीकृताः
विद्यालयस्य
सज्जीकृताः अत्रापि कर्मणि प्रयोगे अस्ति छात्राः सज्जीकृताः इति अस्ति तत्र कर्मणि प्रयोगे अस्ति खलु तत्र
हा किन्तु तत्र कर्मणि प्रयोगे तत्र किन्तु तत्र प्रति उपयुज्य तत्र मया किन्तु अस्माभिः सज्जीकृतः किन्तु हा किन्तु इदानीं तु क्रियापदस्य परिवर्तनं तत्र तप्रत्ययः नास्ति
तत्र विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ददाटे तिलकं धार्यते संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते तैः तिलकं धार्यते इति अस्ति ललाटे सर्वेषां ललाटे तिलकं धार्यते ते सर्वेषां ललाटे तिलकं धारयन्ति
हा तिलकं धारयन्ति समीचीनम्
इति भवति संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते ते संस्कृतसप्ताहस्य शुभाशयान् वदन्ति
हा समीचीनं महोदय हा तत्र वच् धातुः तत्र
वदन्ति
भक्ति
वचन्ति इति अस्ति अत्र वचन्ति वा
वक्ति
योग अन्ति वक्ति वक्तः वचन्ति इति प्रायः एकवारं नाम वच् धातुः अस्ति खलु
द्विवादिगणे तत्र महोदय तत्र
अन्ति
उच्यन्ते इति तत्र दिवा हा उच्यन्ते तत्
अत्र तत्र तत्र प्रयोगः न भवति इति बहुवचनस्य वदन्ति एव भवति वचन्ति एव भवेत् खलु वच् धातुः अन्ति प्रायः वच् धातु वचन्ति एकवारं
एक दृष्ट्वा वदामि महोदय तत्र न स्मरामि अस्तु तत्र
वच् धातु
वदतु
वक्ति वक्तः वचन्ति एव
वचन्ति परन्तु तस्य प्रयोगः आधिक्येन न दृश् इति
अतः तत्र वद् इति एव वयं
वदन्ति एव
हा सत्यं
प्रथमपुरुषस्य भवति वच्मि वक्ति इति
तद् वयं शृणुमः
बहुवचनस्य प्रयोगः न भवति इति जनार्दन हेगडे महोदय कुत्रापि लिखितवान् आसीत् बहुवचनरूपं वचन्ति इति
तत्र हा अपि तत्र अष्टाध्यायी मध्ये तु महोदय तत्र ब्रवीति इति स्वीकृतमस्ति ब्रवीति इति पदस्य ब्रवीति इति तस्य भावे अथवा कर्मणि प्रयोगे उच्यते इति
न वक्ति अस्ति वक्ति वक्तः वचन्ति इति अस्ति परन्तु तत्र न तत्र प्रयोगः न भवति इति
हा अतः तत्र वदन्ति इति स्वीकुर्मः समीचीनम् अस्तु अन्तिमं तत्र समीचीनम् एतत्
अस्तु समीचीनम् एतत् अभयवर्य भवता किं चिन्त्यते इति अभयवर्य भवान् किं चिन्तयति
इति हा समीचीनं महोदय हा अतः तत्र एतत् सर्वं सम्भाषणं तत्र पूर्णतया तत्र कर्मणि प्रयोगे एव अस्ति अतः तत्र अग्रिमे वर्गे एतत् सर्वं पठित्वा अग्रिमेपुटे तत्र कर्मणि प्रयोगे तत्र किञ्चित् ज्ञानं प्राप्नुमः अस्तु तर्हि तत्र समयः अपि जातः प्रश्नाः सन्ति वा तत्र नरेश् महोदय अथवा सूर्यकुमारी भगिनी
नास्ति
न महोदय
अस्तु अस्तु
सुलभ अस्ति क्रियापदं सुलभ अस्ति परन्तु तत्र प्रयोगः किञ्चित्
हा सत्यं महोदय हा किन्तु तत्र
निर्माणं सुलभमस्ति क्रियापदस्य निर्माणं
हा केवलं तत्र अतः तत्र धातोः ज्ञानम् अपेक्षितम् अपि तृतीयविभक्तिरूपम् अपेक्षितम्
सुलभमेव
अस्तु अस्तु अग्रे पश्यामः सोपानेन गच्छामः भगिनि एकं सोपानम् तत्र तद् दृढं भवेत् तदेव तत्र तत्र ज्ञानस्य तत्र केवलं तत्र किं दृढम् अस्ति चेत् अग्रे तस्य उपरि अन्यत् किमपि स्थापितुं शक्नुमः
अपि खलु वयं तत् आत्मनेपदीरूपस्य प्रयोगः न कुर्मः खलु आधिक्येन अत्र सर्वाणि पदानि आत्मनेपदी एव भवन्ति
अतः अतः तत्र सत्यं महोदय
पदिनः एव प्रयोगः
आधिक्येन उपयोगं कुर्मः सत्यं महोदय
अभ्यासः भवति आत्मनेपदीरूपाणां
रूपाणां सत्यम् धातुज्ञानम् अपेक्षितं सत्यं भगिनि हा धातुज्ञानं तृतीयाविभक्तिरूपम् अपि तत्र द्वितीया अपि किञ्चित् तावदेव अपि सत्यं तत्र धातुज्ञानं मूलतः आवश्यकमस्ति हा अस्तु तर्हि तत्र भवती एव तत्र अन्ते वदति वा भगिनि शान्तिमन्त्रम्
पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः महोदय
धन्यवादः भगिनी धन्यवादः धन्यवादः नमस्कारः
शुभरात्रिः
शुभदिन नमस्कारः शुभदिनं महोदय नमस्कारः हरि ओम् शुभदिनं महोदय नमस्कारः